गीता साधक संजीवनी 14वां अध्याय श्लोक 21 से अध्याय की समाप्ति तक।
वसुदेव सुतं देवं कंसचारुरमर्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
अर्जुनवाच कैर्लिंग श्रीमुनानेतानतीको भवति प्रभो किमाचार कथं चैतांस्त्रीमुनानति वर्तते। श्रीभगवानुवाच प्रकाशं च प्रभुं च मोहमेव च पाण्डव न दृष्टि संप्रभृतानि न निवृत्तानि कांक्षति। उदासीनवदासीनो चाल्यते गुणावर्तन्त इत्येव योऽवतिष्ठति नन्दते। समदुःखसुखः स्वस्थ समदुष्टाश्मकाञ्चने तुल्यप्रिया प्रियो वीर सर्वारम्भपरित्यागीनापीतसोच्यते मांसलोभ्यभिचारेण भक्तियोगेन सेवते सगुणान् समति चैतान् ब्रह्मभूयाय कल्पते। ब्रह्मणोऽधि प्रतिष्ठाः ममृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ब्रह्मणोऽधि प्रतिष्ठाः ममृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च सुखस्यैकान्तिकस्य च। ॐ तत्सत् श्रीमद्भगवद्गीतासूर्यशक्तिर्विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम त्रयोदशः।
वसुदेव सुतं देवं कंसचारुरमर्दनं देवकी परमानंदं कृष्णं वंदे।